गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तवम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन् लोदिभिः सेदसादनम् प्रणो देवे सरस्वते वाजेभिर्वाजिनीवते धीनामभित्रयवतो गणेशाय नमः सरस्वत्ये नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोथ इषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतरे नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवाशरव्यायातमतया नो रुद्रमृढया या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्धाभिजागशेः यामिषम् गिरिशन्धहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरुमाहिकम् सेः पुरुषम् जगत् शिवे न वचसा त्वा गिरिशाच्चावदापसे यथा नः सर्वविज्जगत यक्ष्मगम् सुमना असत् अध्यवोचदधि भक्ता प्रथमो दैव्योऽभिषग अहेकश्च सर्वाञ्जम् भय सर्वा आशयातु धान्यः असौयस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागम् रुद्रा अभितो दिक्षु श्रुता सहस्रशो वै शागम् हेण एमहे असव्यो वसर्पति नीलग्रेभो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुत हार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानोहन्तेभ्यो करन्नमः प्रमुञ्झधन्वनस्तमुभयोरात्मियोर्जा याश्च देहस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षतेषु हे निषेरशल्यानाम् मुखा शिवो नः सुमना भवा विज्यम् धनुः कपर्दिनो विशल्यो बाडवागम् उता अनेशन्धस्येष बहाभुरस्य निषङ्कतेः या देहेतर्मेढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्वायुधाया नातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तमधन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अधो य इषुधिस्तभारे अस्मन्निधे हितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्धकाय ಕಾರ್ತಿಕಾಗ್ನಿ ಕಾಲಾಯ ಕಾಲಾಗ್ನಿ ರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮ ಸಸ್ಪಿಂಜರಾಯ ಶ್ರೀಮತೇ ಪಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಭೃಶಾಯ ವಿವ್ಯಾಧಿನೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೇ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯ ತತಾವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸ್ಥಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಮಂದ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೆ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಕೃಷ್ಣಭೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಭಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಕಗುಭಾಯ ನಿಷಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿಣ ಇಷು ಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಚತೆ ಪರಿವಂಚತೆ ಸಾರ್ಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಶೃಕಾವಿಭ್ಯೋ ಜಿಘಾಗುಂಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂಚರಭ್ಯಃ ಪ್ರಕೃಂದಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಜಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಇಷುಮದ್ಭ್ಯೋ ಧನ್ವಾವಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋಭ್ಯೋ ವಿಧ್ಯದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಆಸೀನೇಭ್ಯಶ್ಚಯಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗೃದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಸ್ತಿಷ್ಟದ್ಭ್ಯೋ ದಾವದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಸಭಾಭ್ಯಃ ಸಭಾಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ. ನಮಃವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಉಗಣಾಭ್ಯಸ್ತೃಗುಂಹತೆಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಸೇನಾಭ್ಯಃ ಸೇನಾನಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಕುರಾಲೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಪುಂಜಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. శుక్రద్భ్యో ధన్వకృభ్యశ్చ భో నమో నమో. మృగయుభ్యశ్వనిభ్యశ్చ భో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ భో నమః. నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో. నీలగ్రీవాయ చ శితికంఠాయ చ నమః. కపర్దినే చ వ్యుక్తకేశాయ చ నమః. సహస్రాక్షాయ చ శతధన్వనే చ నమో. గిరిశాయ చ శిపివిష్టాయ చ నమో. మీడుష్టమాయ చేషుమతే చ నమో. హ్రస్వాయ చ వామనాయ చ నమో. బృహతే చ పశ్యేయసే చ నమో. వృద్ధాయ చ సంవృద్ధ్వనే చ నమో. అగ్రయాయ చ ప్రథమాయ చ నమః. ఆశవే చాజిరాయ చ నమః. శీఘ్రయాయ చ శీభ్యాయ చ నమః. ఊర్మ్యాయ చావస్వన్యాయ చ నమః. స్రోతస్యాయ చ ద్వీప్యాయ చ నమో. జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః. పూర్వజాయ చ పరజాయ చ నమో. మధ్యమాయ చ పగల్భాయ చ నమో. జఘన్యాయ చ బుద్ధ్నియాయ చ నమః. సోభ్యాయ చ ప్రతిసర్యాయ చ నమో. యామ్యాయ చ క్షేమ్యాయ చ నమః. ఉర్వర్యాయ చ కళ్యాయ చ నమః. శ్లోక్యాయ చావసాన్యాయ చ నమో. వన్యాయ చ కక్ష్యాయ చ నమః. శ్రవాయ చ ప్రతిశ్రవాయ చ నమః. ఆశుషేణాయ చాశురథాయ చ నమః. శూరాయ చావబిందతే చ నమో. వర్మిణే చ వరోధినే చ నమో. బిల్మినే చ కవచినే చ నమః. శ్రుతాయ చ శ్రుతసేనాయ చ నమో. దుందుభ్యాయ చాహధన్యాయ చ నమో. దృష్ణవే చ ప్రభృశాయ చ నమో. దూతాయ చ ప్రహితాయ చ నమో. నిషంగిణే చేషుధిమతే చ నమః. తీక్ష్ణేశవే చాయుధినే చ నమః. స్వాయుధాయ చ సుధన్వనే చ నమః. శ్రుత్యాయ చ పథ్యాయ చ నమః. కాట్యాయ చ నీప్యాయ చ నమః. సోద్యాయ చ సరస్యాయ చ నమో. నాద్యాయ చ వైషుందాయ చ నమః. కూప్యాయ చ భట్యాయ చ నమో. వశ్యాయ చ వశ్యాయ చ నమో. మేఖ్యాయ చ విద్యుత్యాయ చ నమః. ఈద్రియాయ చ ద్రప్యాయ చ నమో. వాత్యాయ చ రేష్మ్యాయ చ నమో. వాస్తవ్యాయ చ వాస్తుపాయ చ. ఓం హర 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 హర. ఓం నమః సోమాయ చ రుద్రాయ చ నమః. తామ్రాయ చ అరుణాయ చ నమః. శంగాయ చ పశుపతయే చ నమః. ఉగ్రాయ చ భీమాయ చ నమో. అగ్రే వధాయ చ దూరే వధాయ చ నమో. హంద్రే చ హనీయసే చ నమో. వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః. శంభవే చ మయోభవే చ నమః. శంకరాయ చ మయస్కరాయ చ నమః. శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కోల్యాయ చ నమః. పార్యాయ చ భార్యాయ చ నమః. ప్రతరణాయ చోత్తరణాయ చ నమః. ఆతార్యాయ చ లాద్యాయ చ నమః. షష్ప్యాయ చ ఫేన్యాయ చ నమః. సికర్త్యాయ చ ప్రభాహ్యాయ చ నమః. హిరణ్యాయ చ ప్రపత్యాయ చ నమః. కికుంశిలాయ చ క్షయణాయ చ నమః. గభర్దినే చ పులస్తగే చ నమో. గోష్ట్యాయ చ గృహ్యాయ చ నమః. సల్ప్యాయ చ గేహ్యాయ చ నమః. కాట్యాయ చ గహ్వరేష్టాయ చ నమో. హృదయ్యాయ చ నివేష్ప్యాయ చ నమః. పాగుం శ్రవ్యాయ చ రజస్యాయ చ నమః. శుష్క్యాయ చ హరిత్యాయ చ నమో. లోప్యాయ చ లప్యాయ చ నమః. ऊर्व्याय च सूर्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पघुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनर्हतेभ्यो नम आमेवत्केभ्यः द्रापे अन्तसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्जनाममत याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने शगद्वेराय प्रभरामहे मतिम् यता नश्यमसद्विपते चतुष्पथे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृढानो रुद्रोतनो मयस्कृधे शगद्वेराय नमसा विधेमते यच्छम् च योश्च मनुराय जे पिता ततश्यामतव रुद्रप्रणीतो मानो महान्तभुतमानो अर्भकम् मान उक्षन्दभुतमान उक्षितम् मानो वदेः पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते आराते गोग्र उत पोरुषग्ने शगद्वेराय सुम्नमस्मेते हस्तो रक्षाचनो अधिनदेव ब्रूह्यदा च न शर्म यच्छ द्विपर्हाः स्तुहि श्रुतम् यत्र सतम् युवानम् मृगन्न भीममुपहर्तृमुग्रम् मृडा च ऋत्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्वृणक्तु परि त्वेषस्य दुर्मधिरखायो अवस्थिरा मघवभ्यस्तनुष्वमीढ्वस्तोकायतनयाय मृढया मेढुष्टम शिवतम शिवो न सुमना भवा परमे वृक्ष आयुधन्निधाय कृत्रिम् वसा न आचरपि नागम् बिभ्रदागहे विकिरितविलोहितनमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्थुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेन मुखागृहे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागम् सहस्रयोजने बधन्वानि तन्वसे अस्मिन् महत्यर्णवेन्दरिक्षे भवा अधे नीलग्रेवाशितिकण्ढा शर्वा अधः क्षमाचराः नीलग्रेवाशितिकण्ढा दिवगम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रेवा विलोहिताः ये भूता धामधिपतयो विशिखास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृतायव्युतः ये तीर्थानि प्रचरन्ति श्रिकावन्दो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रापितस्थिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् ये इन्द्रक्षे ये दिविये शामन्नम् वातो वरुषमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रदेचीर्दशोदेचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयम् धुतेयम् द्विष्मो यस्य नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो हप्सु य ओषधीषु यो रुद्रो विश्वाभुवनाभिवेश तस्मै रुद्राय नमो हस्तो एते सहस्रमयुधम् पाता मृत्यो मर्त्याय हन्तवे ताञ्जज्ञस्य मायया सर्वानवयजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टुभि यस्विषुः सुधन्वायु विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्या अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्यो रावृणीमहे गातुम् यज्ञपतये देवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शृण्णो हस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यतन्नेनातिरोहते एतापानस्य महिमा अथो जाया कश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादूर्ध्व उधैर्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभे तस्माद्विराट जायत विराजो अधिपुरुषः स जातो अत्यरिष्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाजम् ग्रीष्मयुग्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्तः समिध कृताः देवा यद्यज्ञम् तन्वानाः अभद्रम् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्मात्यत्या सर्वहुतः संभृतं वृषधाजं पशोगस्तागंश्चक्रे वायव्यान आरण्यान् ग्राम्याश्चये तस्मात्यत्या सर्वहुतः ऋजः सामानिजज्ञिरे छन्दागंसि जज्ञिरे तस्मात् यजस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयाततः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यः पुरुषम् यदतुः क्वचिदा व्यकल्पयन् मुखम् किमस्य को बाहो का भूरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः ऊरु ततस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रभामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासेदन्तरिक्षम् शेष्णोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यधास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रतिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सृजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्बोध पृथिवेरसाः च विश्वकर्मणः समवर्तधाधे तस्य त्वष्टा विदधद्रूपमेधे तत्पुरुषस्य विश्वमाचारमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यपन्दा विद्यते यनाय प्रजापतिश्चरति गर्भे अन्धः अजायमानो बहुता विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति भेदसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवाहग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्च ते लक्ष्मीश्च पत्न्योः अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा ॐ तत्क्षय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शांति 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 स्वस्ति प्रजाभ्य परिपालयन्ताम् न्यायेन मार्गेण महीमहेश गोब्राह्मणेभ्य शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति